ओम नमो भगवते वासुदेवाय। अथ षड्विंशोऽध्यायः। नारद उवाच, स एकदा महेश्वासो रथं पञ्चाश्वमाशुगं द्विशं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् एकरश्मेकदमनमेकनीडं द्विकूबरं पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमं हैमोपस्करमारुह्य स्वर्णवर्माक्षये श्रुतिः एकादश च मूनासः पञ्चप्रस्थमगाद्वनम् चचार मृगयां तत्र दृप्तात्तेषु कार्मुकः विहाय जायामततर्हां मृगव्यसनलालसः आसुरीं वृत्तिमाश्रित्य घोरात्मनिरनुग्रहः निहनन्निषितैर्बाणैर्वनेषु वनगोचरान् तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून्वने यावदर्थमलं लुब्धो हन्यादिति नियम्यते। य एवं कर्म नियतं विद्वान् कुर्वीत मानवः कर्मणा तेन राजेन्द्र ज्ञानेन न सलिप्यते, अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते। गुणप्रवाह पतितो नष्टप्रज्ञो व्रजत्यधः। तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः विप्लवो भूद्दुःखितानां दुःसह करुणात्मनां शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात्। ततः क्षुत्रिट्परिश्रान्तो निवृत्तो गृहमेवान् कृतस्नानोचिताहारः संविवेशगतक्लमः आत्मानमर्हयाञ्चक्रे धूपालेपस्रगादिभिः साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः तृप्तोरिष्टः सुतृप्तश्च कन्दर्पाकृष्टमानसः नव्यचष्टवरारोहां गृहिणीं गृहमेधिनीम् अन्तःपुरस्त्रियो पृच्छद्विमना इव वेदिषत् अपि वः कुशलं रामासेश्वरीणां यथा पुरा न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः। यदि न स्याद्गृहे माता पत्नी वा पतिदेवता व्यङ्ग्ये रथैव प्राज्ञः को नामासीत् दीनवत् क्व वर्तते सालना मज्जन्तं व्यसनार्णवे या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे। रामा ऊचुः, नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति भूतले निरवस्तारे शयानां पश्य शत्रुहन्। नारद उवाच, पुरञ्जनस्वमहिषीं निरीक्ष्यावधुतां भुवि तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ सान्त्वयन् श्लक्ष्णया वाच हृदयेन विदूयता प्रेयस्या स्नेहसम्रम्भलिङ्गमात्मनिनाभ्यगात् अनुनिन्ये स शनकैर्वीरोऽनुनयकोविदः पस्पर्शपादयुगलमाहचोत्सङ्गलालितां। पुरञ्जन उवाच, नूनं त्वकृतपुण्यास्ते भृत्यायेष्वीश्वरा शुभे कृतागस्वात्मसात् कृत्वा शिक्षादण्डं न युञ्जते परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः बालो न वेद तत्तन्वी बन्धुकृत्य ममर्षणः। सात्वं मुखं सुदति शुभ्रनुरागभार व्रीडा विलम्ब विलसद्धसितावलोकम् नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् तस्मिन् दधे दममहं तव वीरपत्नी योऽन्यत्र भूसुरकुलात् कृतकिल्बिषस्तम् पश्येन वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् पश्येस्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंष्णमुसती न भजेत कृत्ये। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।